सुनिर्भ नमस्कार। अद्य सिद्धांत कौमुद्याः कारक प्रकरणे नवमः पाठः जून मासस्य चतुर्थः दिनाङ्कः। येनाक्षर समाम नामेन दिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरण सिद्धांत कौमुदीयं विरच्यते। कर्मकारक प्रकरणम् अनुवर्तयामः। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा कर्मकाणाम् अणितत्वासनौ सूत्रम्। किमिदं सूत्रम्? कर्मसंज्ञां विधत्ते। किं विषयकं सूत्रम्? प्रयोज्यकर्तुः निदन्तप्रयोगे कर्मसंज्ञां विदधाति। निदन्तप्रयोगे कर्तृद्वयं भवति, प्रयोजककर्ता प्रयोज्यकर्ता चेति। तत्र यः शुद्धधातोः कर्ता भवति अणि कर्ता, तस्य णौ अर्थात् निदन्तप्रयोगे कर्मत्वं भवति इति सूत्रेण उच्यते। इदं नियमसूत्रम् अर्थात् वस्तुतः सर्वेषां धातूनां विषये अणिकर्तुः णौ कर्मत्वं कर्तरीस्थितमं कर्म इत्यनेनैव सिद्ध्यति। यतोहि प्रयोजक प्रयोजकः क्रियया किं सम्बद्धमिष्यति इति प्रश्ने प्रयोज्यं प्रयोज्यकर्तारम् इच्छति इत्येव उत्तरम्। अतः कर्तरीप्सितसमं कर्म इत्यनेन सर्वत्र कर्मसंज्ञा सिद्ध्यति। सिद्धायां कर्मसंज्ञायाम् आरभ्यमाणमिदं सिद्धे सत्य आरभ्यमाणो विधिः नियमाय भवति इत्यनेन नियमसूत्रमिदम्। कः नियमः? ये गत्यर्थकाः बुद्ध्यर्थकाः प्रत्यवसानार्थकाः शब्दकर्माणः अकर्मकाः वा धातवः, एतेषामेव प्रयोगे अणिकर्तुः णौ कर्मत्वं भवति। अन्येषां विषये किं तर्हि इति प्रश्ने, इतरेषां धातूनां प्रयोगे अणिकर्तुः णौ कर्तृत्वमेव भवति। शुद्धधातु विषये यत् स्वातन्त्र्यमस्ति तदाधारेण यत् कर्तृत्वमस्ति तदेव भवति इति व्यवस्था। तर्हि प्रयोगे कथं भवति इति दृष्टम्। सो इदानीं निदन्ताः, निदन्तेषु सर्वदा क्रियाद्वयं भवति, व्यापारद्वयं भवति, टु आक्षन्स् आल्वेज् इन् अ निदन्त। सो निदन्तधातुवाच्या प्रधानक्रिया, द मेन् आक्षन् इस् निदन्तधातुवाच्या विच् इस् प्रेरणा, दट् इस् मोटिवेटिङ्ग् आर् मेकिङ्ग् सम्बडी डू सम्थिङ्ग् एल्स्। तत्र तस्य व्यापारस्य आश्रयः प्रयोजककर्ता, स एव प्रधानकर्ता अपि भवति। फलाश्रयः तु प्रयोज्यकर्ता, आल्वेज् धात्वर्थः व्यापारः फलञ्च, व्यापाराश्रयः कर्ता फलाश्रयं कर्म इति व्यवस्था। सो हियर् व्यापाराश्रय इस् द प्रयोजककर्ता, द फलाश्रयः इस् द प्रयोज्यकर्ता हू नार्मलि गेट्स् कर्मसंज्ञा बिकास् in relation to the pradhana kriya, right? So always a karaka is in relation to the kriya, ataha kriyanvayena pradhana kriya anvayi yat karma bhavati tadeva prayojyakarta bhavati. Yatu gauna kriya asti nijanteshu shuddha dhatu vachya, so the plain dhatu there also gives the vyapara, but it is called the gauna because the prayojaka vyapara is considered pradhana. So in this case there is a karta, vyaparashtayah prayojyakarta, so the karta for the second action is the prayojyakarta and he is the gauna karta, and the karma for this is the original karma, whatever we have the say work. Gramam gacchati, gramasya karmatvam bhavati, kartu ipsiratamam yadasti prayojyakartuh yadi ipsiratamam tat gauna kriyanvayi karma bhavati. So now if you look at the prayoga, कर्तरि प्रयोगे किं भवति? इफ् यु हाव् द धातवः, गत्यादयः यदि धातवः अर्थात् गतिबुद्धिप्रत्यवसानार्थ शब्दकर्मा कर्मकाः धातवः, तत्र प्रयोजकः कर्ता भवति, स च अभिहितः, ही इस् टोल्ड् बै द तिङन्त, रैट्? सो गमयति इति निदन्तेन तिङन्तेन प्रधानकर्ता अभिधीयते, अतः अभिहितत्वात् प्रयोजककर्तुः प्रथमाविभक्तिर्भवति। यत्तु प्रयोज्यकर्ता अस्ति तत् प्रधानं कर्म कर्म च अनभिहितं कर्तरिप्रयोगे कर्म अनभिहितं तस्मात् द्वितीया विभक्तिर्भवति यत्तु शुद्धधातोः कर्म अस्ति अर्थात् प्रयोज्यकर्तुः इत्युक्तमं तदपि अनभिहितमेव गौणं कर्म कर्मत्वात् तस्यापि द्वितीया विभक्तिर्भवति सो यु सी देयर आर टू द्वितीया विभक्ति स्वामी देवदत्तम् आपणं गमयति अतः It looks like a dvikarmaka dhatu, I mean nijanta, because there is one karma for the shuddha dhatu and another for the nijanta dhatu. Swami devadattam apanam gamayati. So you see two karma padas. Whereas if you look at other dhatus, dhatus which do not belong to these five categories, gatyadi bhinnaha ye dhatavaha, tesham vishaye kim bhavati, prayojakaha, पुनः कर्ता सच अभिहितः निजन्तेन कर्ता अभिहितः अतः तस्मात् प्रथमा विभक्तिर्भवति प्रयोज्यस्तु अनभिहितः कर्ता अत्र कर्मत्वं नास्ति गतिबुद्धि इति सूत्रेण कर्मसंज्ञायाः नियमात् अत्र कर्मत्वं नास्ति सो गौणः कर्ता इति परिगण्यते सो दिस् प्रयोज्यकर्ता क्यान् बी बोत् ही केन् बी कन्सिडर्ड् अस् कर्म इन् रिलेशन् टु द प्रधानक्रिया आर् अ कर्ता इन् रिलेशन् टु द गौणक्रिया सो वेन् बोत् आर् पासिबल् The Pradhana Kriya will overrule the Gauna Kriya, so he will be treated as Karma, as in case of Gati and others. Even here, there is Kartritva associated with the Gauna Kriya. But when there is a clash between Pradhana and Gauna, the Pradhana wins over, therefore he will be the Karma. Yadatu Karma Samya Nasti Niyamyate, Tada Atra Kartritva Meva Tishthati, Tatprayukta Tritiya Vibhaktir Bhavati. So because he is Karta Anabhihita, there will be Tritiya. यत्तु कर्म अस्ति तदनभिहितम् अतः द्वितीयैव भवति स्वामी देवदत्तेन तण्डुलं पाचयति इति देवदत्तात् अत्र यथा द्वितीया अत्र तु तृतीया विभक्तिर्दृश्यते सो इफ् यु गो टु द कर्मणि प्रयोग हियर् सो दिस् इस् प्रोबब्ली ऐ मीन् द कर्मणि प्रयोग देर् इस् नाट् गिवन् इन् द एक्साम्पल् बट् दिस् इस् वेर् यु अण्डर्स्टाण्ड् द अभिहित अण्ड् अनभिहित क्लियर्लि वै अ पर्टिक्युलर् वर्ड् इस् इन् दिस् विभक्ति So if you understand this, you will have understood what is anabhihite and where to apply what vibhakti. So what is happening in a karmani prayoga? Karmani prayoga ha namakaha. Hingantena karma abhidhiyate ityarthaha. So if you come to gatyadayaha dhatavaha, prayojakaha asti karta, karta anabhihitaha. In a karmani prayoga, karta will not be given by the team. Kartuhu anabhihitatvat tritiya bhavati. Okay. Now there are two karma padas. Right, so if you look at the previous slide, you had two dvitiya vibhaktis because of two, pradhanam karma and gauna karma. The same thing is here. Now, which of these karma will be given by the thing? So there is a pradhana and gauna. As we saw just now, the pradhana will always overrule the gauna. And therefore, the pradhana karma will be abhihitam. Pradhana karma tinga abhihitam. Abhihitatvate pradhana karmanaha prathama vibhaktihi. अर्थात् प्रयोज्यकर्तुः प्रथमा विभक्तिर्भवति यत्तु गौणं कर्म अस्ति शुद्धधातोः कर्म तस्य अनभिहितत्वात् द्वितीया विभक्तिर्भवति सो स्वामिना देवदत्तः आपणं गम्यते सो द प्रयोज्यकर्ता एस् यु केन् सी इस् इन् प्रथमा हि इस् द कर्म एण्ड् हि इस् अभिहित अभिहितः कर्म अभिहितं कर्म अभिहितत्वात् प्रथमा भवति न तु द्वितीया के तु इतरे धातवः तत्र पुनः प्रयोजकस्य अनभिहितत्वात् कर्तृत्वाच्च तृतीया विभक्तिर्भवति एण्ड् हियर् द प्रयोज्य इस् नाट् कर्म हि इस् ओन्ली द कर्ता कर्मत्वं नास्ति कर्मत्वं नास्ति अभिहितत्वमपि नास्ति अनभिहितः गौणः कर्ता कर्तृत्वात् तृतीया विभक्तिर्भवति अत्र तु एकमेव कर्म अस्ति शुद्धधातोः यत् कर्म कर्मणः अभिहितत्वात् तस्मात् प्रथमा विभक्तिर्भवति स्वामिना देवदत्तेन तण्डुलः पाच्यते राइट सो दिस् इस् वाट् वी डिड् यस्टर्डे एनि क्वेश्चन् प्रयोजककर्त मत् प्रयोज्यकर्त इन् विच् केस् वेदर् इट् इस् रैट् Is. There is actually only, I mean, for each, there is only one karma. There is one karma for the pradhana kriya and one for the gauna kriya. Yeah, and the karma is because of gati buddhi. The karma samya is because of gati buddhi. So now we will move on to the Dalakritya of the Sutra. Gati buddhi pratyavasana artha shabda karma karma karanam anikarta kanam. Gati ityadi kim. So why these five only? I mean, what happens if this is not there? Why not just say anikarta kanam karma bhavati? So, yeah, he who is a karta in Shuddha Prayoga, he will be the karma nidanta. Why specify these five? So he says, Pathayat Yodhanam Devadattena. So if it is Pathayati, that is a dhatu which is not Gatyarthaka, not Buddhyarthaka, not Bhakshanarthaka, not a Shabda Karma, and not a Karmaka. So if it does not belong to any of these categories, Etadhinnaha Yadhatavaha, that Tesham Prayoge, Anikartuhu, Nau Karmatvam, Nabhavati. अतः देवदत्तेन ओदनं पाचयति कर्तृत्वम् अस्ति कर्तृत्वनिमित्त तृतीयाय भक्तिश्च अस्ति सो पतिधातोः गत्यादिषु अनन्तर्भावात् अणिकर्तुः णौ कर्मत्वं न भवति अण्यन्तानां किम् अन्यत् किम् उच्यते अणिकर्ता स णौ कर्म भवति इति उच्यते तेन किं भवति गमयति देवदत्तो यज्ञदत्तं तम् अपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः सो वै डस ही से अणिकर्ता ही हु इज अ कर्ता व्हेन देयर इज नो निच नो प्रेरणा टू निच विल बी द कर्म व्हेन देयर इज निच सो दिस इज यू हैव टू अंडरस्टैंड द एग्जांपल यज्ञदत्तः गच्छति इज अणिदंत प्रयोग सो शुद्ध प्रयोग ऑफ द गम धातु यज्ञदत्तः गच्छति देवदत्तः यज्ञदत्तं गमयति सो देवदत्त मेक्स यज्ञदत्त गो अयं निजन्तः प्रेरणात्मक अत्र कर्तृद्वयमस्ति देवदत्तः प्रयोजकः यज्ञदत्तः प्रयोज्यः इदानीं यदि अन्यः प्रयोजकः अस्ति पुनः निजन्तः क्रियते सो निजन्त आन् अनिजन्त सो अ सेकेण्ड् पर्सन् इस् मेकिङ्ग् द फस्ट् पर्सन् एक्ट् द थर्ड् पर्सन् इस् मेकिङ्ग् द सेकेण्ड् एक्ट् टु मेक् द फस्ट् पर्सन् डू समथिङ्ग् Theoretically, it is possible, and possibly practically we use it somewhere, I don't know. But, okay. Vishnumitraha devadattena yajnadattam gamayati. See, practically this is possible. There is an order going down a series of people. So, whether we put it theoretically in this form or not, it is certainly possible that there is more than one prayojaka for a prayojya. Right? So, I mean, the orders might be coming down a series of people. So, now there is a second pravartaka. द्वितीयः प्रयोजकः अस्ति यः प्रथमं प्रयोजयति प्रथमप्रयोजकं प्रयोजयति सो विष्णुमित्रः देवदत्तेन यज्ञदत्तं गमयति इत्यस्ति सो नौ देयर इज अ निच ऑन निच ओके रूपं न भिद्यते सो इफ यू ऐड निच टू एन ऑलरेडी अनिजन्त देयर इज नो चेंज इन फॉर्म द फॉर्म विल ऑलवेज बी गमयति वॉट एवर हाउ मेनी एवर सीरीज यू गो बट देयर इज अ निच एंड ऑन दैट देयर इज अ निच So, there are three kartas here, right? So, prayojya karta asti yajna dattaha, prathamah prayojaka karta asti deva dattaha, dvitiyah prayojaka karta asti vishnu mitraha. Hidanim prashnaha, anikartuhu nau karmatvam bhavati. So, yajna datta will get karma samya when you are doing the nijanta, yajna dattam gamayati. Now, when you are doing the nijanta on this, will this karta, deva datta, who was Originally Prayojaka, but now he has become the Prayojyakarta. Will he get Karma Samya? The Prashna. Yaha Atra Prayojaka Karta, Kintu Dvitiya Nijanta Prayoge Prayojyakarta. Deva Dattasya Idanim Karma Samya Bhavati Va Nava. Gati Buddhi Iti Sutrena. Gatya Thakasya Dhatoho Prayoga Hasti. Now Karma Samya Bhavati Va. The Prashna. Now Uchyate Na Bhavati. Kimartham? अणिकर्ता अणिजन्ते अर्थात यत्र निजन्त एव नास्ति शुद्धधातोः प्रयोगे यः कर्ता तस्यैव निजन्तप्रयोगे कर्मत्वं भवति सो दिस् देवदत्त इस् नाट् द कर्ता इन् अणिजन्तप्रयोग अणौ कर्ता नास्ति नावेव कर्ता हि इस् द कर्ता ओन्ली इन् निजन्तप्रयोग अतः द्वितीय निजंत प्रयोगे तस्य कर्तुः कर्मत्वं न भवति कर्तृत्वमेव भवति अतः देवदत्तेन इति तृतीया श्रूयते विष्णुमित्रः देवदत्तेन यज्ञदत्तं गमयति सो अणिकर्तुः प्रयोज्यकर्ता यः अस्ति शुद्धधातोः कर्ता तस्यैव अनेन सूत्रेण कर्मत्वं भवति सो यः इति नियम्यते अणिकर्तुः एव कर्मत्वम् इति नियम्यते पुनः सो दिस् इस् अगेन अ नियम एक्चुअलि इफ् यु रिमूव् दिस् सूत्र All kartas when you have an ijanta should get karma samya because they are karma in a associate in a relation to the prayojaka kriya. But this sutra says niyama bhavati dattyadinam eva dhatunam prayoge iti ekaha niyamaha dvitiyaha niyamaha anikartureva nau karmatvam bhavati anyesham kartrinam arthat prathama nijanta prayoge yaha karta tasya punar nijante कर्मत्वं न भवति इत्यपि नियमः अनेन सूत्रेण क्रियते अणिकर्तुरेव कर्मत्वं न तु अन्येषां निकर्तॄणां इफ् देर् इस् अ कर्ता इन् अनिजन्त हू इस् बीङ्ग् द प्रयोज्यकर्ता इन् अनदर् थिङ्ग् हि विल् नाट् गेट् द कर्म समयम् अत एव किमुच्यते खलु देवदत्तः यज्ञदत्तं गमयति दिस् इस् द फस्ट् निजन्त तं नाम देवदत्तम् अपरः प्रयुङ्क्ते तदा गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः सो देवदत्तेन इत्यत्र देवदत्तस्य पुनः कर्मसंज्ञा न भवति इत्यर्थः सो दट् इस् अबौट् द सूत्र देर् आर् नम्बर् आफ् वार्टिकल्स् विच् आर् असोसियेटेड् वित् दिस् सूत्र द वार्टिककारः मेक्स् अ फ्यू मोडिफिकेशन्स् हि सेस् अन् एक्सेप्शन्स् टु द रूल् अण्ड् हि आड्स् आन् अ फ्यू टु द रूल् तत्र प्रथमं वार्तिकमस्ति नि वह्योः न नि धातुः नि प्रापणे धातुः पुनः वः प्रापणे इति धातुः सो एतयोः धातोः प्रयोगे अणिकर्तुः णौ कर्मत्वं न भवति इति उच्यते सो द अणिकर्ता विल् नाट् बि कर्म इन् निजन्त सो नायति वाहयति वा भारं भृत्येन संभृत्यः भारं नयति अथवा वहति सो भृत्यः नाम सेवकः भारं नयति भृत्यः भारं वहति इति शुद्धधातोः प्रयोगः स्वामी भारं नाययति हि मेक्स् हिम् केरी द लोड् नौ दिस् भृत्य शुड् हि गेट् द कर्मसंज्ञा आर् नाट् प्रश्नः सो कर्मसंज्ञा न भवति ईमह्योर्न इति उक्त्वा अतः भृत्येन भारं नाययति अथवा भृत्येन भारं वाहयति भृत्येन इति तृतीया अतः कर्ता इति गम्यते न तु कर्म So, if you look at the Akshana here, Nayayati Vahayati Va iti. Bhrityaha Bharam Nayati Vahati Va, Tam Prerayati Ityarthaha. Atra Prayojya Kartuhu Bhrityasya, Nich Prakrityartham Nayanam Vahananch Pratikartuhu, Prayojaka Vyaparam Pratikarmatve Nivratte, So there is no karmatva. He was actually karta for nayana or vahana. And prayojaka vyaparam prati karmatvam. So he should also have been the karma for the prayojaka vyapara. Karmatve nivritte. But now since the Vatika says it was not karma, there is no karmatva. Nich prakrityartham prati kartritvasyaiva. Nirapavadatvena avasthanat. Tritiya bodhya. So now it is the only samya which is left is the karta for నిచ్ ప్రకృతి దట్ ఈస్ ద శుద్ధ ధాతు సో అవస్థ తృతీయా బోధ్య యద్యపి నీవహ్యోః ప్రాపణం అర్థః నౌ ద క్వశ్చన్ ఇస్ దేర్ ఇస్ ఎ నిషేధ నీవహ్యోః న ఇతి నిషిధ్యతే కేన ప్రాప్తిః హౌ బికాజ్ ఆర్ దే ఆర్ నాట్ గత్యర్థకస్ బై దెంసెల్స్ ప్రాపణం అర్థః తర్హి కథం ప్రాప్తిః ఇతి చేత యద్యపి నీవహ్యోః ప్రాపణం అర్థః तथापि गत्यनुकूल व्यापारार्थके प्रापणे गतेः विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात् प्राप्तिः सो वाट् इस् प्रापण वि सो दिस् अगेन् इन् वाट् वास् दट् द्विकर्मकात् अजां नयति वहति एट्सेट्रा सो वाट् इस् दिस् प्रापण इट् इस् एन् एक्शन् विच् फेसिलिटेट्स् मूमेण्ट् टु अ पर्टिक्युलर् प्लेस् सो facilitates movement to a particular place. So, it is not directly movement. Nayati is not gachati. It is not directly movement. It is not gatyarthaka. But, gatyanukula vyaparathaka. It is a vyapara which enables gati. But here also, gatehe visheshanatvena pravishtataya. Gati is involved as the visheshana to the vyapara. And therefore, these are also treated as gatyarthakas. Gatyarthakatvatu gatibuddhi ittenena karmatvam praktam anena vartikena nishidhyate ittarthaha. Taha nivahyorna vrityaha bharam nayati swami vrityena bharam nayayati. पुनश्च वार्तिकमस्ति नियंत्रकर्तृकस्य वहेर अनिषेधः नियंत्रकर्तृकस्य वहेः अनिषेधः नियंता नियंता प्राजिता यंता सूतः क्षत्ता च सारथिः इत्यमरः सो सारथि द चैरियटीर इज कॉल्ड नियंता ही हु होल्ड्स और रीन्स इन दिस सो यत्र वहधातोः निजंत प्रयोगे सारथेः कर्तृत्वं भवति सो देयर इज वहति सो देयर इज a karta, the prayojaka karta is a sarathi. If the prayojaka karta is a sarathi, niyantra kartrakasya vahehe. So, yatra vahadhatohu nijanta prayoge sarathes kartratvam bhavati, tatra anikartuhu nau karmatva nishedhaha na bhavati. He is saying anishedhaha. The previous vartika said, nivakhyorna vahadhatohu prayoge anikartuhu nau karmatvam na bhavati. यदि नियंता प्रयोजक कर्ता भवति तर्हि अयम् निषेधः न अर्थात् अणिकर्तुः नौ कर्मत्वं भवति इत्यर्थः सो वाहयति रथं वाहान् सूतः इत्युदाहरणम् वाहाः रथं वहन्ति वाहाः नाम अश्वाः सो द हॉर्सेस कैरी द ड्रॉ द चैरियट सूतः रथं वाहयति द चैरियटीर मेक्स देम draw the chariot. Now, atra prayojaka karta asti sutaha. Ataha niyantra karta kasya vahehe. Where a charioteer is the prayojaka karta, there is no nishedha. Karmatva nishedha nasti. Asthat karmatvam bhavati vahan ratham vahayati. In the previous case, it was rutyena karyam or the bharam nayayati or vahayati. So here it is vahan ratham vahayati. So he makes rashva will get karma samya tatprayukta dvitiya vibhaktischa bhavati. So vahayati di manuramayam. Vahaha ashvaha vahanti tan sutah prerayati ityarthaha. Niyanta pradita yanta sutah kshatta jasarathihi ityamarha. Vahanti valivardaha yavan vahayati valivardan devadattaha. So that is another example which is given in the Bhashya. Iti Bhashya Udaharanat, Niyanta Pashuprerakaha Eva Vivakshitaha. So here the Niyanta is intended as the one who makes animals carry something. Okay, Pashuprerakaha Niyanta. So what else is possible? I don't know why he makes this point. What exactly is the... Not the one who makes machines, but I mean, if you look at the Kala of the Mahabhashya, or maybe you have something like an instrument, it need not be a machine, say shakatena bharam vahayati. So he is making the cart carry a load. So tatra, it might be a suta, but he is not making an animal. Pashuprerakaha nasti ataha tatra shakatena karmatvam na bhavati shakatena iti syat. That is my guess. So I look at the bhashya for confirmation. What exactly is the context? Okay. So that is a vartika and a vartika for the vartika. So you have to look at these both together. Nivahyorna yantrakartrakasya hai ranishedhaha. The next one says adikhadyorna. Okay. So for gatyarthaka we have an exception in ni and vah. So for pratyavasanarthaka we have an exception adikhadyohu na. Adabhakshane khadrabhakshane. So, nijantaha, adi, khadi, iti nijantaha. सो एतयोः धातोः णिजन्तप्रयोगे गतिबुद्धि इत्यादिना अणितः कर्मत्वं न भवति. सो वेन् आदयति अर्थादयति इस् यूस्ड् अणिकर्तुः णौ कर्मत्वं न भवति. प्राप्तिः प्रत्यवसानार्थकत्वात् प्रत्यवसानं भक्षणम् इत्युक्तं प्रत्यवसानार्थकौ एतौ धातु. सो प्राप्ते गतिबुद्धि इत्यादिना अणिकर्तुः णौ कर्मत्वे प्राप्ते अनेन निषिध्यते वार्तिकेन. आदयति खादयति वा अन्नं वटुना, वटुः अन्नम् अत्ति अथवा खादति भक्षयति इत्यर्थः. गुरुः वटुना अन्नम् आदयति अथवा खादयति. सो इफ् इट् इस् भोजयति, वटुः अन्नं भुङ्क्ते गुरुः वटुम् अन्नं भोजयति इति कर्म भवति. यदि तु अद् धातुः खाद् धातुर्वा प्रयुज्यते तदा वटुना अन्नम् आदयति अथवा वटुना अन्नं खादयति. अण्ड् अगेन् निषेध फार् द निषेध, नो दिस् इस् अगेन् अ डैरेक्ट् निषेध. भक्षेः अहिंसार्थस्य न, अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः नौ कर्मत्वं न भवति. सो दिस् इस् अगेन् अ डैरेक्ट् निषेध फार् गतिबुद्धि. दट् इस् भक्षधातु इट् इस् बीन् टोल्ड् भक्षधातुः विषये अणिकर्तुः णौ कर्मत्वं न भवति इत्यर्थः. अहिंसार्थकत्वं नाम किम् इति अनन्तरं पश्यामः. सो भक्षेरिति सो व्याख्याने अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यम् इत्यर्थः. ननु गतिबुद्धि इति सूत्रे अणौ कर्तुः णौ कर्मत्वम् उक्तम्. दिस् इस् अनदर क्वेश्चन् विच् द commentator brings here. As we saw, the sutra says anikartuhu nau karmatvam, nijanta bhave yah karta tasyaiva nau karmatvam vidhiyate. Nanu gati buddhi iti sutre anau kartuhu nau karmatvam uktam, bhakshadhatustu churaditvat nityam swarthikan yantaha. So this bhakshadhatu belongs to the tenth gana, churadi gana. Yahyeva uktam निच् द्विविधः, स्वार्थिकः निच् भवति, प्रेरणार्थकः निच् भवति. ये चुरादिगणीयाः धातवः सर्वेषां स्वार्थे णिच् भवति, चोरयति, कथयति, गणयति इत्यादयः, भक्षयति इत्यादयः. स्वार्थे सर्वदा णिच् भवति, कम्पल्सरिली देर् इस् आल्वेस् णिच्. यु नेवर् हियर् चोरयति विथौट् द णिच्. सो कम्पल्सरिली देर् इस् णिच् अण्ड् इट् डस् नाट् चेञ्ज् द मीनिङ्ग्. स्वार्थे एव णिच् भवति. प्रेरणे अन्यः निजस्ति. सो इदानीं यः भक्षुधातुः चुरादित्वा नित्यं स्वार्थिकण्यन्तः तस्य अणिकर्ता नास्ति एव. सो दिस् इस् टु अणिकर्ता, निजन्ता भावः नास्ति. इट् इस् नेवर् सीन् विथौट् अ नी एण्ड् देर् फोर् दिर् इस् नो अणिकर्ता. सो वैसे अणिकर्तुः कर्मत्वं न भवति, अणिकर्ता एव न भवति, तस्य कर्मत्वं नास्ति इति निषेधः कुतः इति प्रश्नः. भक्षधातुस्तु चुरादित्वां नित्यं स्वार्थिकण्यन्तः तस्य अणिकर्ता नास्त्येव, अतः तस्य कर्मत्वनिषेधः अनुपपन्नः अप्रसक्तत्वात् इति चेत् न. अत एव निषेधा लिङ्गात्, टेकिङ्ग् दिस् निषेध इट् सेल्फ् एस् द बेसिस्, गतिबुद्धि इति सूत्रे निग्रहणेन हेतुमतः एव विवक्षितत्वात्. सो वि दिस् वार्तिका इट् सेल्फ् प्रूव्स् दट् द नी इन् गतिबुद्धि सूत्र refers only to the Hetuman niche, which is the niche obtained by Hetumaticha and not the Swarthika niche. So, a karta, when there is no Hetuman niche, will get karma samya when there is Hetuman niche. So, the if the original has a Swarthika niche, it does not matter. Tatra api pravartate, artha chorayati iti yadhatuhu, tadvishayati idam sutam pravartate ityarthaha. अत एव निषेधा लिङ्गात्. सो टेकिङ्ग् दिस् निषेध इट् सेल्फ् एस् द बेसिस्, गतिबुद्धि इति सूत्रे निग्रहणेन हेतुमतः एव विवक्षितत्वात्. एवं च हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुः, हेतुमण्यन्तवाच्यां क्रियां प्रति कर्मत्वम् इत्यर्थः पर्यवस्यति. सो द भक्षयति वेन् देर् इस् स्वार्थिक णिच्, that is, there is no hetuman niche, there is a karta. When you add the prerana niche, there is another karta. So tada ಅಣಿಕರ್ತುಹೂಣೌ ಕರ್ಮತ್ವಂ ಪ್ರಾಪ್ನೋತಿ ತನ್ನಿಷೇಧಾರ್ಥಂ ಇದಂ ವಾಸ್ತಿಕಂ. ಭಕ್ಷಯತ್ಯನ್ನಂ ವಟುನಾ, ವಟುಃ ಅನ್ನಂ ಭಕ್ಷಯತಿ ಇತಿ ಶುದ್ಧ ಧಾತುಃ. ಲುಕಿಂಗ್ ಇನ್ ದ ರೂಪ ಯು ಕೆನಾಟ್ ಲೈಕ್ ಭಕ್ಷಯತಿ ಇಸ್ ದ ಸೇಮ್ ವೆದರ್ ಇಟ್ ಇಸ್ ಶುದ್ಧ ಧಾತು ಆರ್ ನಿಚ್ ದಟ್ ಇಸ್ ಹೇತುಮಣ್ ನಿಚ್. ಇನ್ ಗಚ್ಚತಿ ಗಮಯತಿ ಯು ಕ್ಯಾನ್ ಮೇಕ್ ಔಟ್, ಇನ್ ಭಕ್ಷಯತಿ ಭಕ್ಷಯತಿ ಯು ಕೆನಾಟ್, ವೆದರ್ ಇಟ್ ಇಸ್ ಪ್ಲೇನ್ ಆರ್ ಹ್ಯಾಸ್ ಅನ್ ಆಡೆಡ್ ಪ್ರೇರಣಾರ್ಥಕ ನಿಚ್ ಯು ಕೆನಾಟ್ ಟೆಲ್. ಓಕೆ, ಬಟ್ ಲುಕಿಂಗ್ ಅಟ್ ದ ಅದರ್ ವರ್ಡ್ಸ್ ಯು ಕ್ಯಾನ್ ಟೆಲ್. ಸೊ ವಟುಃ ಅನ್ನಂ ಭಕ್ಷಯತಿ, ಗುರುಃ ವಟುನಾ ಅನ್ನಂ ಭಕ್ಷಯತಿ. ಸೊ ದೇರ್ ಇಸ್ ನೋ ಕರ್ಮತ್ವ ಫಾರ್ ವಟು, ದರ್ ಇಸ್ ತೃತೀಯ ವಿಭಕ್ತಿ ಬಿಕಾಸ್ ಆಫ್ ದ ಕರ್ತೃತ್ವ. ಅಹಿಂಸಾರ್ಥಸ್ಯ ಕಿಂ, ಭಕ್ಷೇಡ್ ಅಹಿಂಸಾರ್ಥಸ್ಯ ನ ಇತಿ ಉಚ್ಯತೆ, ಕಿಂ ಕಃ ಅರ್ಥಃ. ಭಕ್ಷಯತಿ ಬಲಿವರ್ಧಾನ್ ಸಸ್ಯಂ ಇತ್ಯಸ್ತಿ. ಸೊ ಯು ಲುಕ್ ಅಟ್ ದ ಬಲಿವರ್ಧಾಃ ಸಸ್ಯಂ ಭಕ್ಷಯಂತಿ ಇತಿ ಪ್ರಯೋಗಃ. ದ ಆಕ್ಸನ್ ಬಲಿವರ್ಧಾಃ ನಮ್ಮ ಆಕ್ಸ್, ದಿ ಆಕ್ಸನ್ ಈಟ್ ದ ಪ್ಲಾಂಟ್ಸ್. ಗೋಪಾಲಃ ಬಲಿವರ್ಧಾನ್ ಸಸ್ಯಂ ಭಕ್ಷಯತಿ. ಅಹಿಂಸಾರ್ಥಸ್ಯ ಅತ್ರ ಹಿಂಸಾ ಅಸ್ತಿ, ಹಿಂಸಾರ್ಥಕತ್ವಾತ್ ನಿಷೇಧ ನಾಸ್ತಿ, ದೇರ್ ಇಸ್ ನೋ ಕರ್ಮತ್ವ ನಿಷೇಧ. ಸಿನ್ಸ್ ದೇರ್ ಇಸ್ ನೋ ಕರ್ಮತ್ವ ನಿಷೇಧ, ದೇರ್ ಇಸ್ ಕರ್ಮ ಸಮಯ, ಅಂಡ್ ದೇರ್ಫೋರ್ ಇಟ್ ಇಸ್ ಬಲಿವರ್ಧಾನ್ ಸಸ್ಯಂ ಭಕ್ಷಯತಿ ಅಂಡ್ ನಾಟ್ ಬಲಿವರ್ಧೈ ಸಸ್ಯಂ ಭಕ್ಷಯತಿ. ದ ಪ್ರೀವಿಯಸ್ ಕೇಸ್ ಹಿ ಸೆಡ್ ವಟುನಾ ಅನ್ನಂ ಭಕ್ಷಯತಿ, ಹಿಯರ್ ಇಟ್ ಇಸ್ ಬಲಿವರ್ಧಾನ್ ಸಸ್ಯಂ ಭಕ್ಷಯತಿ. ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಅಥವಾ ಕರ್ಮತ್ವ ಅಸ್ತಿ, ಅತಃ ಅತ್ರ ಹಿಂಸಾರ್ಥಕತ್ವ ಅಸ್ತಿ ಇತಿ. ಕಥಂ ಇತಿಗೆ ಭಕ್ಷಯತಿ ಬಲಿವರ್ಧಾನ್ ಸಸ್ಯಮಿತಿ, ಕ್ಷೇತ್ರೇ ಪ್ರರೂಢಂ ಅಲೂನಂ ಸಸ್ಯಂ ಇಹ ವಿವಕ್ಷಿತಂ, ತಸ್ಯ ತದಾನೀಂ ಅಂತಃಪ್ರಜ್ಞ ಜೀವತ್ವಾತ್ ತದ್ಭಕ್ಷಣಂ ಹಿಂಸೈವ ಇತಿ ಭಾವಃ. ವೆರಿ ಇಂಟ್ರೆಸ್ಟಿಂಗ್ ಥಿಂಗ್ ಹಿ ಸೇಸ್, ಕ್ಷೇತ್ರೇ ಪ್ರರೂಢಂ ಅಲೂನಂ ಸಸ್ಯಂ ಇಹ ವಿವಕ್ಷಿತಂ. ದ ಸಸ್ಯ, ದ ಪ್ಲಾಂಟ್ ಇಂಟೆಂಡೆಡ್ ಹಿಯರ್ ಇಸ್ ಕ್ಷೇತ್ರೇ ಪ್ರರೂಢಂ, ದಟ್ ವಿಚ್ ಇಸ್ ಗ್ರೋಯಿಂಗ್ ಇನ್ ದ ಫೀಲ್ಡ್ ಅಲೂನಂ ಅಂಡ್ ನಾಟ್ ಕಟ್. ದಟ್ ಇಸ್, ಇಟ್ ಇಸ್ ನಾಟ್ the cowherd has cut the grass and brought it in front. They are feeding on plants which are growing in the field. Tasya tadani, tasya sasyasya tadani, arthat prarudha dashayam, when they are not yet cut, antakpragya jivatvat, they have life. It says there is life and they have chaitanya. Tadbhakshanam himsaiva, and therefore it is himsa. So, ಅಹಿಂಸಾರ್ಥಕಸ್ಯ ನ ಯತ್ರ ಹಿಂಸಾ ನಾಸ್ತಿ, ದಟ್ ಇಸ್ ಈಸ್ ಈಟಿಂಗ್ ಅನ್ನ ವಿಚ್ ಇಸ್ ನಾಟ್, ಐ ಮೀನ್ ವೆನ್ ದ ರೈಸ್ ಆರ್ ವೆನ್ ದ ಗ್ರೈನ್ ವಾಸ್ ಕಟ್ ದೆನ್ ಇಟ್ ವಾಸ್ ಹಿಂಸಾ, ಬಟ್ ವೆನ್ ಈಸ್ ಈಟಿಂಗ್ ದ ಅನ್ನ ಇಟ್ ಇಸ್ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಲೈಫ್ ಅಂಡ್ ದೇರ್ ಫೋರ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಹಿಂಸಾ. ಅಂಡ್ ದೇರ್ ಫೋರ್ ದೇರ್ ಇಸ್ ನಿಷೇಧ ಫಾರ್ ಕರ್ಮತ್ವ. ಯತ್ರ ತು ಹಿಂಸಾ ಗಮ್ಯತೆ ತತ್ರ ಕಿಂ ನಾಸ್ತಿ ಕರ್ಮಣ, ಕರ್ಮತ್ವಸ್ಯ ನಿಷೇಧ ನಾಸ್ತಿ ಕರ್ಮತ್ವಾತ್ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ದೃಶ್ಯತೆ. ಸೊ plants have life, it's what there since Panini, I mean since at least Vararuchi. Ahimsarthasena the next vartika jalpati prabhutina upasankhyanam. So far he gave nishedha, that is nivahyorna ಆದಿಖಾದ್ಯೋರ್ನ ಭಕ್ಷೇರ ಅಹಿಂಸಾರ್ಥಸ್ಯ ಇತಿ ತ್ರಯಃ ನಿಷೇಧಾಃ ದೃಷ್ಟಾಃ. ಇದಾನೀಂ ವಿಧಿಃ ಜಲ್ಪತಿ ಪ್ರಭೃತೀನಾಂ ಉಪಸಂಖ್ಯಾನಂ. ಜಲ್ಪಾದೀನಾಂ ಧಾತೂನಾಂ ಪ್ರಯೋಗೇ ಅಣಿಕರ್ತಾಣೌ ಕರ್ಮ ಭವತಿ, ಸೊ ದೇ ವಿಲ್ ಬಿ ಕರ್ಮ. ಸೊ ಅಣಿಕರ್ತೂಣೌ ಕರ್ಮತ್ವಂ ಭವತಿ ಇತಿ ವಕ್ತವ್ಯಂ ಇತಿ ಉಚ್ಯತೆ. ಅರ್ಥಾತ್ ಗತಿಬುದ್ಧಿ ಇತಿ ಸೂತ್ರೇಣ ನ ಪ್ರಾಪ್ನೋತಿ ಕರ್ಮತ್ವಂ, ಕಿಂತು ಅನೇನ ವಾಸ್ತಿಕೇನ ವಿಧೀಯತೆ. ದತ್ಯಾದಿಷು ಅನಂತರ್ಭಾವಾತ್ they do not belong to these, it is jalpati etc, they do not belong to these category of gati buddhi pratyavasana shabda karma or akarmaka, and therefore this vartika adds on them to the list and says for even for these dhatus there is anikartu nau karmatvam bhavati iti uchyate. Ke jalpati prabhutayah istikte bhashye jalpati vilapati bhashate iti dhatutrayam udahrutam. So there is a controversy whether it is only for these three dhatus or for similar dhatus. There are two parties here, that is there are two different views regarding this. So jalpayati bhashayati va dharmam putram devadattaha, putraha dharmam jalpati और भाषते ही स्पीक्स करेक्टली और राइटियसली देवदत्तः पुत्रम धर्मम जल्पयति और भाषयति पुत्रम पुत्रम धर्मम जल्पयति सो देयर इज कर्मत्व एंड देयरफॉर देयर इज द्वितीया विभक्ति सी दिस जल्पयति भाषयति वेति धर्मम इति शेषः पुत्रो धर्मम जल्पति भाषते वा तम देवदत्तः प्रेरयति इत्यर्थः दत्त्यर्थादिषु अनन्तर्भावात् वचनम् न च शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थम् इति वाच्यम् सो दैट इज टू से दिस वार्तिका मेक्स सेंस इफ दीज वर्ड्स डू नॉट बिलोंग इन दत्त्यादि बट देयर इज समथिंग कॉल्ड शब्दकर्म सो नाउ शब्दार्थ शब्दन क्रियार्थत्वाद सो दीज ऑल दीज वर्ड्स वेयर आर यू थिंक जलपति भाषते विलपति दैट द क्रिया द एक्शन इटसेल्फ इन्वॉल्व्स शब्द राइट सो शब्द कर्म व्हाई नॉट इंक्लूड देम अंडर शब्द कर्म शब्दन क्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थम् इति न वाच्यम् न च वाच्यम् अतः एव शब्दकर्म कर्मकारणाम् इत्यस्य शब्दः कर्मकारकम् येषाम् इत्यर्थः So that is why in Shabda Karma, we defined it as Shabdaha Karma, Nama Karma Karakam Yesham. There are two meanings for karma. One is Kriya Ityarthe, Karma Shabdaha Prayujyate. Kim Karma Kima Karmeti Kavayok Chatra Mohitaha. Karma Nama Kriya Ityarthe Karma Shabdaha Prayujyate. Karma Karakam Asti Vishishtam Paribhashitam Vyakarane. So Shabdaha Karma Yesham Ityarthe, Karma Nama Kriya Va, कर्मकारकं वा इति प्रश्नः डज इट इन्वॉल्व द एक्शन वेयर द एक्शन इटसेल्फ इज शब्द और वेयर द कर्मकारक इज शब्द सो देयर इट हैज बीन डिफाइंड द शब्दः कर्मकारकं वेयर द कर्मकारक इज शब्द लाइक यू से वेदम अधीते सो ही स्टडीइंग द वेद तत्र वेदः शब्दरूपः कर्मकारकं शब्दरूपः अतः तत्र भवति It does not involve dhatus where the action itself is shabda. Where you are saying jalpati to speak where the action itself is shabda. So dharmam jalpati, dharma where the karma karaka is not shabda. Dharma is not just words. It is actually doing something, right? So veda is only words, a collection of shabda or sounds. Whereas dharma is not a sound. The karma karaka here is not a sound and therefore this is not shabda karma. That is what he says. Shabdana kriyarthatvadeva siddhe vatanamidam vyartham iti namatyam. Ata eva, shabda karma karma kanam ityasya, shabdaha karma karakam yesham ityarthat. Anyatha, veda madhyapayad vidhim iti asiddhe hai. Otherwise, what would be the problem if we define shabda karma as shabdaha kriya yesham, where the action involves sound. So there, Vedam adhyapayat vidhim ityasti, adhite athava adhyapayati. So there, adhyayana is not an action which is only words. Okay. So it is like, say, jalpati is an action, shabdaha eva kriya, atratu shabdanam kriya nasti. Ataha, tatsadhanartham kim vaktavyam, shabdaha karmakarakam yasya iti vaktavyam, tatha utte atra na siddhyati. Anyatha, Vedam adhyapayat vidhim iti asiddhyehe. Okay, so that is one part. Vartike adina vyaharati varatyadinam sangrahaha. Bhashyetu ke punar jalpati prabhutayaha jalpati vilapati abhashate ityeva uktam. Pariganam ityeke udaharanamatra pradarshanam ityanye. So there are two views. One they say pariganana. That is only for these three. Jalpati, vilapati, bhashate. And some people say udaharanamatram. These are only examples. So other dhatus with similar meaning, like vyaharati, vadati, ityadayah, tesham api vishaye anikartuhum nau karmattam bhavati iti keshanchana matam. Okay. So there is one more vartika in the sutra, drisheshcha. Okay, he is adding on one more dhatu. Drishir prekshane pashyati dhatuhu. तस्य धातोः प्रयोगे अणिकर्ताणौ कर्म भवति सो दिस अगेन डज नॉट बिलोंग टू दोस फाइव कैटेगरीज गति बुद्धि एटसेट्रा सो देयरफॉर अस्यापि विषये अणिकर्ताणौ कर्म भवति वक्तव्यं दर्शयति हरिं भक्तान् भक्ताः हरिं पश्यन्ति. सो द डिवोटीस सी हरि. गुरुः भक्तान हरिं दर्शयति. ही शोस देम हरि. अर्थ है भक्तान हरिं दर्शयति. भक्ताः अणि कर्तारः नौ कर्मत्वं भवति. सो देयर इज भक्तान हरिं दर्शयति. सो दर्शयति इति हरिं भक्ताः पश्यन्ति तान् गुरुः प्रेरयति इत्यर्थः. ननु दृशेः बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनम्. This is a question. There is buddhi in the sutra. Gati buddhi. Buddhi defined as jnana, right? To know. Now, darshana is a type of jnana. It is a specialized type of knowledge, knowing, right? So, darshana, all the specialized senses, darshana, shravana, whatever, they are all jnana. Right? Basically, they are all jnana, a special type of it. So, nanu drishehe buddhi visheshatmakatva deva siddhe. So, if they can also be included under buddhyarthakatva, so then naturally we will have karmatva from the sutra. Why this separately? Nanu drishehe buddhi visheshatmakatva deva siddhe kimarthamidam vachanam ityataha sutre jnana samanyarthanam eva grahanam natu tad visheshatthanam iti anena jnapyate. So the Dikshitar says, this Vartika itself shows that the buddhi in the sutra refers only to jnana samanyarthana, those dhatus which tell just knowledge in, that is not specifically a particular type of knowledge, but just knowledge, like say vetti, janati, ityadinam eva tatra grahanam, natu jnana visheshartakana, iti anena eva jnapyate. So this Vartika itself proves that. Sutre iti, gati buddhi iti sutre, buddhi grahane na, jnana samanya vasinam, vidajnane, jnya avabodhane, ityadinam eva grahanam, natu jnana vishesha vasinam, ityetat, visheshcha ityanena vijnayate. Anyatha, drishesha ityate, vayarcha prasanga. Hence, the Vartika itself would not be required. So, since he is telling the Vartika specifically, it means that the word buddhi in the sutra refers only to jnana samanyarthakaha and not specific types of knowledge. Tena smarati jighratyadinam na. So therefore, we have dhatus like smarati where he remembers, jighrati, smells, shrunoti, all those. So in those cases, there is no karmatva for anikarta. Anikarta karmatvam na bhavati. Smarayati ghrapayati va devadattena. So devadatta smarati, athava devadattaha jighrati. Yajyadattaha devadattena smarayati. He makes devadatta remember or he makes him smell, ghrapayati. So in these cases there is no karmatva. Only if it is drishadhatu there is karmatva. For all other dhatus which convey specific types of knowledge there is no karmatva. Okay. So here like practically there is a question. So I mean in prayoga, at least in these days prayoga, we say mam smaraya. It's a very popular prayoga. Right? So if you have anybody who uses say conversational Sanskrit would be very familiar with the prayoga mam smaraya. How? It should actually be maya smaraya, right? So according to this, he is very clearly saying, which is, gives smarati as an example and says, ani kartuhu nau karmatvam na bhavati. Aham smarami, tvam maya smaraya iti bhavet. Mam smaraya iti katham iti prashnaha. There is no answer. I mean, don't expect an answer because I have also been looking for an answer in various places since many days. Because it is a very popular prayoga, whether it is a shishta prayoga or not, we know. I don't think we have come across such examples in Kavya or anything. But most certainly in today's conversation it is there, Mam Smaraya. So, this is just to give an insight on how scholars think. I have asked a few scholars. We cannot reject this prayoga because it is a prayoga. Prayoga Sharanaha Vayakaranaha. So, if it is just a random prayoga by one kavi, you can say it is Pramada. But when there is a prayoga which is widely in vogue, you cannot reject it outright. But how to substantiate it? is also a question, right? So, I mean, there is no, I mean, I have not yet found an answer, and with the few scholars I have found, but that is one thing where you have a, I mean, this shows that Vyakarana is not like, say, we are not just looking at prayogas of, say, poets who are 2000 years old. Vyakarana should and will always cater to today's prayogas. So, as and when there are prayogas, there should be a way to substantiate them. Okay, so there are finding ways. There are many such cases where there are such problems arising, especially now that Sanskrit is more and more being used in conversation, and there are new kinds of prayogas. I don't say new prayogas because we cannot create a new dhatu or create a new thing. But the way Sanskrit is being used has changed. So there should be something in grammar which goes on to substantiate those prayogas which are accepted by the users. Okay. So there are, I mean, there are some many cases where they have succeeded. This is one case where I don't know yet if there is any substantiation for that particular prayoga or not. There's something that could be thought over. So if anybody can find out, I'd be glad to know it. I will see. So we'll stop here. There is one more vartika to this sutra which we'll see in the next class. Any questions? Well, that is how from exactly. So, what is the authority for adding here is what is to be decided. I mean, so exactly. So, that is all. I would say one person here says, the other person will not accept. So, yeah, there are quite a few problems in such things. That is what I wanted to highlight. So, I don't know what is the solution to this. But, all Vyakarana should think about such prayogas, where prayoga clashes with Shastra, what is to be done, or how can it be resolved. At different levels of thought goes on, it can be resolved somehow. Yeah. Exactly, that is the problem here. There is no authority who can, who will be treated as pramana by everybody else. So, okay. Nachila samam naimadigam maheshwara asasam vyakaranam proktam tasmi panihe namaha. Munitre namastitya tadat pishparibha vyakarana siddhanta kaumudiyam virachyate. Okay, so, I mean, load.